एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवाविदेना दलस्य उपसभापतये पूर्णबहादुर खड्का विदाय कार्यवाहक सभापतेः दायित्वम् प्रदत्तम् वर्तते। सानेपा वर्तिनी दल केन्द्रीय कार्यालये ह्य उपविष्टे केन्द्रीय समितेः उपवेशे सभापतिः देउवा उपसभापतये खड्का विधाय कार्यवाहक सभापतेः दायित्वम् प्रादात्। उपवेशम् सम्बोधयन् सभापतिः देउवा गत भाद्रमासस्य त्रयोविंशे चतुर्विंशे च दिवसयोः विहितस्य जेएनजी युवसन्ततेः आन्दोलनस्य क्रमे त्यक्त प्राणान् जनान् प्रति श्रद्धाञ्जलिम् प्राकटयत्। सभापतिः देउवा जेएनजी युवसमूहस्य विद्रोहस्य द्वितीयं दिनं भाद्रस्य चतुर्विंशः दिवस नेपालस्य इतिहासस्य भयावह दिवसस्य रूपेण लिपिबद्धो भवति। तस्य दिनस्य घटनया सर्वे आहतीकृताः सन्ति ती च उदैरयत्। उपवेशे सभापतिः देउवा देशे संकटस्य समये सर्वदापि नेपाली कांग्रेस दलेन नेतृत्वदायिनी भूमिका निर्व्यूढास्तीति अनुभवः अस्माकं पार्श्वेऽस्ति। सम्प्रत्यपि सर्वेषु दलेषु सहमतिम् अन्विष्य देशाय गतिः प्रदातव्येति प्रावोचत्। सम्बोधने सभापतिः देउवा जननिर्वाचित संविधान सभया निर्मितं नेपालस्य संविधानं संकटे अस्ति। प्रतिनिधिसभां विघटय्य नूतन निर्वाचनस्य कृते दिनं निर्धारितं सदपि स्वतन्त्रे निष्पक्षे भयरहिते च वातावरणे निर्वाचनं भविष्यतीति अवस्था न सृष्टास्ति इत्यतः दलेषु परस्परं विमर्शनाय सहकार्याय च बलं प्रदत्तवान्। तदवसरे सभापतिः देउवा स्वतस्फूर्तरूपेण निर्वाचने सहभागितायाः अवस्थायाः निर्माणस्य दायित्वं सर्वकारस्य अस्तीति अवोचत्। सभापतिना देउवाविदेन सम्बोधनस्य पश्चात् नेपाली कांग्रेस दलस्य केन्द्रीय समितेः उपवेश स्व आश्विनस्य त्रिंशे दिवसे पुनः उपवेक्ष्यमाणत्वेन स्थगितः आसीत्। राष्ट्रपतिः रामचन्द्र पौडेलः अर्जनेन सह अध्ययनाय इजरायल देशं गतस्य नेपाली विद्यार्थिनः विपिन जोशिनः निधनं प्रति दुःखम् अभिव्यनक्ति। राष्ट्रपतिना पौडेलेन एक्स सामाजिक सञ्जालस्य माध्यमेन प्यालेस्टीन देशीय हमास समूहस्य नियन्त्रणे विद्यमानस्य जोशिनः उन्मुक्तये आत्मना भूयो भूय प्रयासः विहितः आसीदिति स्मरता। सहसा जोशिनः निधनस्य सूचनया आत्मना स्तब्धता अनुभूतेति उक्तं वर्तते। राष्ट्रपतिना पौडेलेन जोशिनं प्रति श्रद्धाञ्जलिं समर्प्य शोकाकुल परिवारजनेषु शुभेच्छुकेषु च समवेदना प्रकटितास्ति। अत्रान्तरे विपिन जोशिनः शवस्य नेपाले आनयनस्य प्रक्रिया प्रारब्धास्तीति परराष्ट्र मन्त्रालयेन ज्ञापितं वर्तते। मन्त्रालयेन ह्यो विज्ञप्तिं प्रकाश्य इजरायल वर्तिनः नेपाली दूतावासस्य प्रतिनिधिभिः ह्य एव तेल अविव स्थितस्य नेशनल सेन्टर फर फरेन्सिक मेडिसिन इति चिकित्सा केन्द्रस्य भ्रमणं कृत्वा विपिन इत्यस्य शवस्य विषये पुष्टिः कृतास्ति। शवस्य नेपाले आनयनस्य प्रक्रिया प्रारब्धा वर्तते इति च ज्ञापितम् अस्ति। मन्त्रालयेन जोशिना शवस्य नेपाले आनयनस्य पश्चात् तस्य मृत्योः वास्तविक कारणस्य परिस्थितेश्च सम्बन्धे सर्वकारस्य सम्बद्ध पक्षाणां च सहयोगेन समन्वयेन च सत्य तथ्ये ज्ञातुं न्यायं प्रदापयितुं तस्य परिवारजनैः प्राप्तव्यायाः सामाजिक सुरक्षायाः क्षतिपूर्तेः सुरक्षण वित्तस्य च कृते च उचितः प्रयासः विधीयते इति विज्ञप्तौ लिखितं वर्तते। मधेस प्रदेशस्य प्रदेश प्रमुख पदीयया सुमित्रा सुवेदी भण्डारिणा मुख्यमन्त्रिणः सतीश कुमार सिंहस्य त्यागपत्रं स्वीकृत्य नूतन मुख्यमन्त्रिणः कृते सत्वस्य प्रस्तुत्यै दलानि आहूतानि वर्तन्ते। प्रदेश प्रमुख पदीयया भण्डारिणा प्रदेशसभायां प्रतिनिधित्वं कुर्वतां द्वयोः द्व्यधिकानां वा दलानां समर्थनेन बहुमतं प्राप्तुं समर्थ। प्रदेशसभा सदस्य अद्य अपराह्नस्य चतुर्वादनं यावत् मुख्यमन्त्रिपदस्य सत्वं प्रस्तुतुम् आहूतो वर्तते। तत्पूर्वम ह्य प्रदेश सभायां मुख्यमन्त्रिणा सिमेन विश्वासस्य मतस्य प्राप्तेः अवस्थायाः दर्शनाभावानन्तरं सर्वकारस्य निर्माणस्य मार्गं प्रशस्तीकृत्य मुख्यमन्त्रिपदात् त्यागपत्रं प्रदातुं घोषणा विहितासीत्। सिंह मधेश प्रदेशस्य तृतीयो मुख्यमन्त्री आसीत्। प्रधानमन्त्री मन्त्रिपरिषद कार्यालयेन प्रधानमन्त्रिण सुशीला कार्किण नाम प्रयुज्य सहयोग वित्तस्य संकलनम् संकलनाय प्रोत्साहनम् वा प्राप्ते सति तथाविध गतिविधौ संलग्नता प्राप्ता सति वा विधेय अनुसारेण दण्ड्यन्ते इति स्पष्टीकृतम् वर्तते। कतिपय व्यक्तिभिः समूहैश्च प्रधानमन्त्रिणः कार्किणः प्रधानमन्त्री कार्यालयस्य च नामनि प्रयुज्य विभिन्न परियोजनानाम् कोषाय सामाजिक कार्याणां वा नाम्नि सहयोग वित्तं याच्यमानं वर्तते इति सूचनां प्रति ध्यानाकर्षणं सम्भूतं वर्तते इति प्रधानमन्त्रिणः सचिवालयेन उल्लिखितं वर्तते। प्रधानमन्त्री मन्त्रिपरिषद कार्यालयस्य सहसचिवस्य प्रवक्तुश्च रविलाल शर्मणः अनुसारेण प्रधानमन्त्रिणः प्रधानमन्त्री कार्यालयस्य वा पक्षतः कस्मैरपि कथंविधस्यापि सहयोग वित्तस्य संकलनाय अनुमतिः प्रदत्ता नास्ति। तथाविधम् भ्रमं न धर्तुं तथाविधे कार्ये संलग्नाः न भवितुं च प्रवक्त्रा शर्मणा विज्ञप्तिर्माध्यमेन सर्वे अनुरुद्धाः वर्तन्ते। जेएनजी युवसन्ततेः आन्दोलनस्य क्रमे दग्धे सर्वोच्च न्यायालये ह्यस्तनात् दिवसात् सर्वविध न्यायिक निवेदनानां पञ्जीकरणस्य कार्यं प्रारब्धं वर्तते। न्यायालये सर्वविधानां न्यायिक निवेदनानां पञ्जीकरणं ह्यस्तनात् दिवसात् प्रारब्धमस्तीति न्यायालयस्य प्रवक्ता अर्जुन प्रसाद कोइराला असूचयत्। सर्वोच्च न्यायालयस्य गत षड्विंशे दिवसे रविवासरे उपविष्टेन पूर्णोपवेशेन ह्यस्तनात् दिवसात् नूतन न्यायिक निवेदनानां पञ्जीकरणाय निर्णीतम् आसीत्। सैव सर्वोच्च न्यायालयस्य नियमितानाम् अन्येषां सेवा प्रवाहाणाम् अपरसूचनायाः अप्रकाशनं यावत् समयावधि न समाप्नोतीति च सर्वोच्च न्यायालयेन ज्ञापितं वर्तते। एतत्पूर्वम् अग्निदाहस्य घटनायाः पश्चात् सर्वोच्च न्यायालयस्य नियमित सेवायाः प्रभाविभवनानन्तरं बन्दी प्रत्यक्षीकरण सदृशानाम् अत्यावश्यक न्यायिक निवेदनानां श्रवणं न्यायालयस्य परिसरे अस्थायी स्थानं निर्माय विधीयमान आसीत्। अत्रान्तरे सर्वोच्च न्यायालये जेएनजी युवसन्ततेः आन्दोलने दमनकर्तृणां विरुद्धे प्रतिनिधिसभायाः विघटनं विधाय अन्तरिम सर्वकारस्य संघटनस्य विरुद्धे च आदेशाभियाचना न्यायिक निवेदनानि प्राप्तानि सन्तीति सर्वोच्च न्यायालयस्य प्रवक्ता अर्जुन प्रसाद कोइराला अज्ञापयत्। इमानि निवेदनानि अध्ययनस्य क्रमे वर्तन्ते, अध्ययनस्य पश्चात् अवशिष्ट प्रक्रिया अग्रे वर्धिष्यते इति च प्रवक्ता कोइराला असूचयत्। ऊर्जा जलस्रोत सेचन भौतिक पूर्वाधार यातायात नगरीय विकास मन्त्री कुलमान घिसिङ विपद संकटस्य न्यूनीकरणाय आवश्यकम् अध्ययनं कृत्वा वसतीनां विकासस्य आवश्यकतां दर्शयति। विपद संकट न्यूनीकरणेन सम्बद्धस्य चतुर्थ राष्ट्रिय सम्मेलनस्य ह्य ललितपुरे आयोजिते समापन कार्यक्रमे मन्त्री घिसिङ जलवायोः परिवर्तनस्य कारणेन नेपालेन प्रतिवर्षं विपद घटनाः सोढभ्यमानाः सन्तीति उक्त्वा एतदर्थं प्रभावकारी व्यवस्थापनं सूचना प्रणाली च आवश्यक्यौ स्तः इति अगदत्। कार्यक्रमे प्राधिकरणस्य कार्यकारी प्रमुख स्थपति दिनेश भट्ट विपद संकट न्यूनीकरणाय भौतिक पूर्वाधाराणां सुरक्षण कोषस्य व्यवस्था विधातव्य इति चर्चयन् स्थानीय सर्वकाराणां नागरिक समुदायानां च सशक्तिकरणाय बलं प्रदत्तवान्। गृहमन्त्रिणा ओमप्रकाश आर्यालेन सर्वकारे सुदूरपश्चिम प्रदेशस्य प्रतिनिधित्वस्य व्यवस्था विधातव्य इत्यादि याचनाः प्रस्तुत्य आमरणे अनशने स्थितस्य अछाम जनपदस्य मदन बुढा इत्यस्य अनशनं त्रुटितं वर्तते। बुढा विभिन्नाः याचनाः प्रस्तुत्य काष्ठमण्डपस्य माइतीघर मण्डलास्थाने अनशने आसीत्। गृहमन्त्री अर्याला ह्य अनशनस्थलं प्राप्य अनशनरताय बुढा इत्यस्मै जलं पाययित्वा अनशनं त्रुटितवान् इति काष्ठमण्डप जनपद प्रहरी परिसरस्य प्रवक्ता प्रहरी उपरीक्षकश्च पवन कुमार भट्टराई असूचयत्।